लेखनं नवः ईशेषु नामार्धं जीवनं इति किम् अर्धम्? अहमेव मित्राणां त्वमेव अहम् एकः प्रश्ना ददा संसिद्धम्। किं त्वमेवं मिषि आसीत्? योः बहुशः त्वमेवं सर्वम् इदं विधानम् अनुकरण अस्मिन्। आहा, किमेवम् इदं नेत्परिते यन्तम्? त्वं मिषेय रूपान्तरशेषं तूचा अपि आगच्छयम्। युष्मेषु तेषु हृदयेषु पश्यन्तिता सत्यं सत्यं युष्मान् येषुष्य उपरेण विश्वासं कुर्यन्ति। इदं यूयमेषु तस्य हृदयेषु निर्णयेषु ईशुः उपरेण विश्वासं कुर्वतः। भो वयेषु तस्य पदेषु विश्वासं कुर्वन्ति स्म। इदं विधानेषु वयः मातापितरः कुर्वन्ति। बले बले युष्मेषु उन्नतकार्येषु एषः वयाम्नेषु स्थिरत्वं तदा। युष्मान् किमेव ईश्वरस्य याचकति स्म? किमेवं वयमेषु हृदयानि स्वस्थतासिद्धि चा युष्मां तस्या सन्तानेषु तुल्यं निर्मितम्। भो इदं भाषणानि त्वं निर्णयं कुर्वते। किमेव वयं तस्य मार्गेण प्रगच्छयति? एतेषु अहमेव ईश्वरस्य गृहं प्राचलते स्म। एतत् एकः मानवः तस्य हृदयेषु ईश्वरस्य तस्य रक्षकः रूपेण च प्रभुरूपेण तस्य रूपं स्वीकरन्ति स्म। एवं तस्य भाषणेन सुस्पष्टं भाषणं आवर्भयति। तत्क्षणे तु तस्य पापानां क्षमापणं कुर्वतः च पवित्रात्मा त्वमेषो प्रवेशितं तिष्ठति च त्वं सहायार्थं सहायकवान् आविर्भवम्। एषा उन्नतकार्याणां कुर्वन्तार्थम्। तेषु ईश्वरस्य सन्तानः आविर्भवतम् च ईश्वरः तस्य पिता तुल्या आविर्भवम् च सा सहायं कुर्वन्ति च त्वमेवं संसिद्धतं प्रच्यते। वयमेवं तदा सदा वयष्मां रोगाणानि तत् विलक्षणसमयेषु तेषु ईश्वरस्य विश्वासं कुर्वन्ति स्म तद्यम्। ईश्वरस्य सदाकालं युष्माशेषु निवसन्तं तद्यम् इति च अपि वयमेषु प्रेमं निर्मितम्। युष्मानां तस्य धन्यवादानि कुर्वन्ति। तेषु सम्भाषणेषु एतम् अहमेव समीपं प्रगच्छि। किमेवं सहं जानयन्ति? बहुशः अहमेव समीपं प्रागच्छ। एषः त्वमेव बलाकार्याणेषु आगच्छति। इदं कष्टतरं भाषणम्। वयमेषु सहनशीलता च दयालुत्वं निर्मितम्। ईश्वराणां प्रभु ईशस्य मृत्येषु पुनः जीवितं प्राप्ति स्मति तेना महाशक्तिवान् पश्यन्ति। एतः वयमेषु सहायं कार्यं कुर्वन्ता तत् महाशक्तिद्वारेण तस्य समर्थनद्वारेण एषः सहायं कुर्वन्ति च वयमेषु सच्चकार्याणार्थम्। तत्समयेन शेतानां प्रयत्निस्मि तेषु द्वारेण वयमेषु द्वारेण दुष्टकार्यं कुर्वन्तं प्रयत्नं कुर्वति। एतत् समये ईशुष्यां वयमेषु सहायं दद। वयं वयमेषु जीवनेषु इदं पश्यतं तज्यम् अस्ति। किमेव वयं ईश्वरस्य सन्तानम् अस्ति। एष हमेवम् एक नव्यव्यक्तिरूपेण निर्मितवान्। सः तस्य पन्धेन चला समर्दवान्। ईश्वरस्य प्रभु ईशस्येषु वयमस्य बलिदानं कुर्वन्तः। वयमेषु तस्य प्रेमं दद। इदं समयेन वयं तस्य नामित्रं। तस्य आत्माः वयमेषु हृदयेषु उपशविति। वयं तत्प्रेमं ददा शक्यतः इदं विधानेषु। वयं तेषेषु अहमस्य प्रेमाविधानं ददाति। तेषु वयमेषु शत्रुत्वं भवति। ईश्वरस्य वयमेषु इदं वसन्ति। तस्यं वयमेवं समतुल्यं निर्मितवान्। एषा इदं विधानं वदा तत् पवित्रग्रन्थेषु। त्वमेवा शत्रूणामस्य प्रेमं प्रदर्शयम्। तेषाणामार्धं सच्च कार्यं कुर्वति। एतेषु त्वमेवं दुष्टकार्यं कुर्वन्तः। अपि च त्वम् इदमेव दुष्टकार्यं कुर्वन्ते जनानां पश्यशक्ते। त्वं सत्यं सत्यम् ईश्वरस्य सन्तानं भवति। किमेवं त्वमेषेण ईश्वरस्याप्रेमं सन्ति। तेषु एवं प्रभुयेषु मार्गेण अनुसरं कुर्वन्ति। इदमेवं वेषाणाम् अवश्यकार्याणि सन्ति। वयमेव ईश्वरस्य भाषणेषु विश्वासं कुर्वणं तथ्यम्। इदं विधानेषु साम्प्रतं तस्य वचनानि पालयन्ति स्मां तथ्यम्। वयमेव ईश्वरस्य भाषितं पवित्रग्रन्थेषु ग्रहितं तथ्यं च विश्रब्धं तथ्यं च प्रतिदिवसेषु। इदं वयमेव आवश्यकतम् एकः समयं निर्मितवन् निर्णयं ददा तथ्यं। तत्समयेन अहम् ईश्वरस्य भाषिणं साध्यम्। इदमेवं पन्तः तेषु द्वारेण तस्य सच्चकार्याणि ग्रहितमार्धं च ततेषु च तद्यम्। एषा इदं मा इच्छतं। तस्य सन्तानं बालानां तुल्यम् अस्ति। इयमेव तस्य इच्छा इदं विधानम्। शक्तिवन्तः च अपरेषु सहायमार्थं कार्यं कुर्वन्तः निष्ठतः। इदं विधानेषु एकं पदम् अस्ति। तत् ईश्वरस्य कार्याणि प्रदर्शयम्। इदं विधानेषु बहूनि भाषणम् अस्ति। वयमेव ईश्वराणां धन्यवादं ददा संसिद्धम्। किमेवं एषः एषा तस्य पुत्रा ईशस्येह वयमेषु बलिदानं कुर्वन्ति संसिद्धम्। सः एकः नव्यमानवरूपेण निर्मितवान्। एवं तस्य मार्गेषु चलानां शक्यते। ईश्वरस्य प्रभु ईशेषु वयम् ईश्वरस्य धन्यवादं कुर्वन्ति संसिद्धम्। इदानं कठिनकार्याणि वयमेषु सः कुर्वन्ति स्म। एषः वदति, किमस्य तस्येषु प्रेम कुर्वन्ति तेषार्धम्। सर्वं भाषणानि सम्मिलितयन्ति सच्चकार्याणार्थं वयं तेषार्थं प्रार्थनं कुर्वन्ति तथ्यम्। इदं प्रभु ईशेषु न ग्रहितं। वयं वयमेष शोधनानि च दुष्टकार्याणि निमित्तार्थं प्रार्थनं कुर्वन्ति तथ्यम्। ईश्वराणां सदाकालेषु वयमेव जीवनेषु एकः कठिनसमयेषु च सहायं कुर्वन्ति इच्छति। वयमेषु प्रार्थनानानि उत्तराणि तथ्यं ददा। अपि च तस्य इच्छार्थं सहाग्रहितम् इदं सर्वम् अहमेवार्थं सच्चविधानम्। परन्तु अहमेव प्रार्थनानि उत्तरं नादद च अभिपश्यन्त शक्ति। तस्येषु वयमार्थम् एकः बृहत्तरा पदकं संसिद्धम्। किं वयं तेषूणां विश्वासं कुर्वन्ति? सः वयमेषु हृदयेषु सन्तोषणानि ददा कृतनिश्चयम् च अपि तेषु विश्वासं कुर्वन्तं निर्णयं बहूनानि वस्तूनि प्राप्तं क्रैस्तवस्य जीवनपरमार्थम् इति। ईश्वरस्य समीपं सच्च जीवनार्थं जीवितं तथ्यम्। अपि च वयेषु हृदयेषु शान्तिसमाधानानि अस्ति। ईश्वराणां वयमार्थम् आशीर्वादं कुर्वन्ति। इदं विधानेषु प्रभु ईशस्य पन्थः अनुसरणं कुर्वन्ति।